गुरुणां गुरुर्दत्त देवस्य साक्षात् महाज्ञान वारासी रूपस्य रम्ये गुरुरङ्घ्रि पद्मे मनश्चेन्न लग्नम् ततः किं त्रिमूर्तिस्वरूपस्य दत्ताह्वयस्य त्रिलोकादिमध्यान्तिमस्थानहेतोः गुरोरङ्घ्रि पद्मे मनश्चेन्न लग्नम् ततः किं निवृत्ति प्रवृत्ति प्रबोध प्रमाण प्रकाशार्थ संधान दत्त द्विजस्य गुरोरङ्घ्रि पद्मे मनश्चेन्न लग्नम् ततः किं समुद्धर्तुमस्मान् समेतस्य भूयो नराकारमाश्रित्य दत्तस्य भूमौ गुरोरङ्घ्रि पद्मे मनश्चेन्न लग्नम् ततः किं त्रिदेवात्मनो दत्त नाम्नो महर्षे श्रुतिस्मार्थ विज्ञान सिद्धान्त कर्तुः गुरोरङ्घ्रि पद्मे मनश्चेन्न लग्नम् ततः किं पवित्रानसूयात्रि पुत्रस्य रक्षा श्रितस्याभितो धेनु धर्मश्व वेदैः गुरोरङ्घ्रि पद्मे मनश्चेन्न लग्नम् ततः किं महाब्रह्मतेजोभिरत्युज्ज्वलस्य सुकाशाय चेलस्य दत्तोत्तमस्य गुरोरङ्घ्रि पद्मे मनश्चेन्न लग्नम् ततः किं सुवेदान्त वर्षान्त दत्ताम्बुदस्य क्वचित् विद्युदाघात सिद्धान्त भासः गुरोरङ्घ्रि पद्मे मनश्चेन्न लग्नम् ततः किं